क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेशा मनोज्ञ नैश्रेयस काननाद्यैः अनेकवापी मणिमन्दिरैश्च अनुपमं तं भवतो निकेतं मुनीश्वराः प्रापुः अतीतकक्ष्याः भवद्दिदृक्षून् भवनं विविक्षून् द्वास्थौ जयस्तान् विजयोऽपि अरुन्धां तेषाञ्च चित्ते पदमापकोपः सर्वं भवत्प्रेरणयैव भूमन् वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् इति प्रशप्तौ भवदाश्रितौ तौ हरिस्मृतिर्नः अस्त्विति नेमतुस्तान् तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्षा खगेश्वरांसार्पितचारुबाहुः आनन्दयन् तान् अभिराममूर्त्या प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्रान् अनन्यनाथौ अथ पार्षदौ तौ संरम्भयोगेन भवैस्त्रिभिर्माम् उपेतम् इत्यात्तकृपं न्यगादीः त्वदीयभृत्यौ अथ काश्यपात्तौ सुरारिवीरौ उदितौ दितौ द्वौ सन्ध्यासमुत्पादन कष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः उभौ भवन्नाथम् अशेषलोकं रुषान्यरुन्धां निजवासनान्धौ तयोः हिरण्याक्षमहासुरेन्द्रः रणाय धावन् अनवाप्तवैरी भवत्प्रियां क्ष्मां सलिले निमज्य चचारगर्वात् निनदन् गदावान् ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयन् त्वां भक्तैकदृश्यः सकृपानिधे त्वं निरुन्धिरोगान् मरुदालयेशा ॐ तत्सदिति श्रीमन्नारायणीये एकादशं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।